ओम नमो भगवते वासुदेवाय। अथ पञ्चमोऽध्यायः। मैत्रेय उवाच, भवो भवान्या निधनं प्रजापते रसत्कृताया अवगम्य नारदात्। स्वपार्षदसैन्यं च तदध्वरर्भुभिर्विद्रावितं क्रोधमपारमादधे। क्रुद्धः सुदष्टोऽष्टपुटश्च धूर्जटिर्जटां तडिद्वन्निषटोऽग्ररोचिषम् उत्कृत्य रुद्रः सहसोत्थितो हसन् गम्भीरनादो विससर्जताम् भुवि। ततोऽतिकायस्तनुवास्पृशन् दिवम् सहस्रबाहुर्घनरुक् त्रिसूर्यदृक्। करालदंष्ट्रो ज्वलदग्निमूर्धजः कपालमाली विविधोद्यतायुधः। तम् किम् करोमीति गृणन्तमाः बद्धाञ्जलिम् भगवान् भूतनाथः। दक्षम् स यज्ञम् जहिमद्भटानाम् त्वमग्रणी रुद्रभटान् शको मे। आज्ञप्त एवम् कुपितेन मन्युना स देवदेवम् परिचक्रमे विभुम्। मेने तदात्मानमसङ्गरम् हसामहीयसाम् तात सह सहिष्णुम्। अन्वीयमानः स तु रुद्रपार्षदैर्भृशम् न दद्भिर्व्यनदत्सु भैरवम्। उद्यम्य शूलम् जगदन्तकान्तकम् स प्राद्रवद्घोषणभूषणाङ्घ्रिः। अथर्त्विजो यजमानः सदस्याः ककुभ्युदीच्याम् प्रसमीक्ष्य रेणुम्। तम किमेतत् कुत एतद्रजो भूदिति द्विजा द्विजपत्न्यश्च दध्युः। वातानवान्ति न हि सन्ति दस्यवः प्राचीनबर्हिर्जीवति होग्रदण्डः। गावो न काल्यन्त इदम् कुतो रजो लोकोऽधुना किम् प्रलयाय कल्पते। प्रसूतिमिश्रा स्त्रिय उद्विग्नचित्ता ऊचुर्विपाको वृजिनस्यैष तस्य। यत्पश्यन्तीनाम् दुहित्रीणाम् प्रदेशः सुताम् सतीमवदध्यावनागाम्। यस्त्वन्तकाले व्युक्तजटाकलापः स्वशूलसूच्यर्पितदिग्गजेन्द्रः। वितत्य नृत्यत्युदितास्त्रदोर्ध्वजानुच्चाट्टहासस्तनयित्नुभिन्नदिक्। अमर्षयित्वा तमसय्य तेजसम् मन्युप्लुतम् दुर्विषहम् भ्रुकुट्या। करालदंष्ट्राभिरुदस्तभागणम् स्यात् स्वस्ति किम् कोपयतो विधातुः। बह्वेवमुद्विग्नदृशोच्यमाने जनेन दक्षस्य मुहुर्महात्मनः। उत्पेतुरुत्पाततमाः सहस्रशो भयावहादिविभूमौ च पर्यक्। तावत् स रुद्रानुचरैर्मखो महान् नानायुधैर्वामनकैरुदायुधैः पिङ्गैः पिशङ्गैर्मकरोदराननैः पर्याद्रवद्भिर्विधुरान्वरुध्यत। केचिद्बभञ्जुः प्राग्वंशम् पत्नीशालाम् तथा परे सदाग्निध्रशालाम् च तद्विहारम् महानसम्। रुरुजुर्यज्ञपात्राणि तथैकेऽग्नी न नाशयन् कुण्डेष्वमूत्रयन् केचिद् विविधुर्वेदिमेखलाः। अबाधन्तमुनीनन्य एके पत्नीरतर्जयन् अपरे जगृहुर्देवान् प्रत्यासन्नान् पलायितान् भृगुम्बबन्धमणिमान् वीरभद्रः प्रजापतिम्। चण्डीशः पूषणम् देवम् भगम् नन्दीश्वरो गृहीत्। सर्व एवर्त्विजो दृष्ट्वा सदस्या सदिवौकसः तैरर्द्यमाना सुभृशम् ग्रावभिर्नैकधा द्रवन् जुह्वतस्रुवहस्तस्य स्मश्रूणि भगवान् भवः। भृगोर्लुलुञ्चे सदसि यो ह सच्छ्मश्रुदर्शयन् भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि। उज्जहारसदहस्थोक्ष्णा यः शपन्तमसूसुचत् पूष्णश्चापातयद्दन्तान् कालिङ्गस्य यथा बलः। शप्यमाने गरिमणि यो ह सद्दर्शयन्ततः। आक्रम्योरसि दक्षस्य शितधारेण हेतिना छिन्दन्नपि तदुद्धर्तुम् नाशक्नोत्र्यम्बकस्तदा। शस्त्रैरस्त्रान्वितैरेव मनिर्भिन्नत्वचम् हरः। विस्मयम् परमापन्नो दध्यौ पशुपतिश्चिरम् दृष्ट्वा सङ्ज्ञपनम् योगम् पशूनाम् सपतिर्मखे। यजमानपशोः कस्य कायात्तेनाहरच्छिरः। साधुवादस्तदा तेषाम् कर्म तत्तस्य हंसताम्। भूतप्रेतपिशाचानामन्येषाम् तद्विपर्ययः। जुहावैतच्छिरस्तस्मिन् दक्षिणाग्नावमर्शितः। तद्देव यजनम् दग्ध्वा प्रातिष्ठद्गुह्यकालयम्। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थस्कन्धे दक्षयज्ञविध्वंसो नाम पञ्चमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।